अथ श्रीराम रक्षास्तोत्रम् विनियोगः ॐमस्य श्रीराम रक्षास्तोत्रमन्त्रस्य बुधकोशकऋषिः श्रीसैवारामचन्द्रो देवता अनुष्टुप् छन्दः सीताशक्तिः श्रीमान् हनुमानकीलकम् श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रपाठे विनियोगः ध्यानम् ॐ ध्यायेदाजानुबाहम् धृतसरधनुसम्बद्धपद्मासनस्थम् ीताम्बासो वसानम् नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् वामाङ्कारूढसीतामुखकमलमिलल्लोचनम् नीरदाभम् नानालङ्कारदीप्तम् दधत मुरुजटामण्डलम् रामचन्द्रम् स्तोत्रम् ॐ चरितम् रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् पुंसाम् महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामम् रामम् राजीवलोचनम् जानकी लक्ष्मणोपेतम् जटामुकुटमण्डितम् सासितोर्णधनुर्बाणपाणिरन्तम् चरान्तकम् स्वलीलया जगत्रातो माविर्भूतमजम् विभुम् राम रक्षाम् पठे प्राज्ञम् पापाग्निम् सर्वकामदाम् शिरो मे राघव पातो फलम् दशरथात्मजः कौसल्येयो दृशो पातो विश्वामित्रप्रियश्रुतिः घ्राणम् पातु मखत्राता मुखम् सौमित्रिवत्सलः जिह्वाम् विद्यानिधि पातु कण्ठम् भरतवन्दितः स्कन्धो दिव्यायुधः पातु भुजो भग्ने सकार्मुकः करो सीतापति पातो हृदयम् जामदग्न्यजेत् मध्यम् पातु करध्वंसे नाभिम् जाम्बवदाश्रयः सुग्रीवे सकटे पातो शक्तिनि हनुमत्प्रभुः रघोत्तमः पातो रक्षाकुलविनाशकृत् जानुनीसेतुकृत्पातो जङ्घे दशमुखान्तकः पातो विभीषणश्रीदः पातु रामोऽखिलम् वपुः एताम् रामबलोपेताम् रक्षाम् यः सुकृति पठेत् सचिरायुः सुखे पुत्रे विजयी विनयी भवेत् पातालभूतलव्योमाचारिणश्छद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितम् रामनामभिः रामेति रामभद्रेति रामचन्द्रेति वास्मरन्।